चिंता कापि न कार्या निवेदितात्मभिः कदापीति भगवानपि पुष्टिस्थो न करिष्यति लौकिकीं च गतिम्। निवेदनं तु स्मर्तव्यं सर्वथा तादृशैर्जनैः सर्वेश्वरश्च सर्वात्मा निजेच्छातः करिष्यति। सर्वेषां प्रभुसंबन्धो न प्रत्येकमिति स्थितिः अतोऽन्यविनियोगेऽपि चिन्ता का स्वस्य सोऽपि चेत् अज्ञानादथवा ज्ञानात् कृतमात्मनिवेदनम् यैः कृष्णसत्कृत् प्राणै तेषां का परिदेवना। तथा निवेदने चिन्ता त्याज्या श्रीपुरुषोत्तमे विनियोगेऽपि सा त्याज्या समर्थो हि हरिः स्वतः। लोके स्वास्थ्यं तथा वेदे हरिस्तु न करिष्यति पुष्टिमार्गस्थितो यस्मात् साक्षिणो भवताखिलाः। सेवाकृतिर्गुरो राज्ञा बाधनं वा हरिच्छया अतः सेवा परं चित्तं विधाय स्थीयतां सुखम्। चित्तोद्वेगं विधायापि हरिर्यद्यत् करिष्यति तथैव तस्य लीनेति मत्वा चिन्ता द्रुतं त्यजेत्। तस्मात् सर्वात्मना नित्यम् श्रीकृष्णः शरणं मम वदद्भिरेवं सततम् ध्येयमित्येव मे मतिः।